ऋषभं मासमानानां सपत्नानां विशासहिं हन्तारं शत्रूणां कृधि विराजं गोपतिङ्गवाम् अहमस्मि सपत्नहेन्द्र इवारिष्ठो अक्षतः अधः सपत्ना मे पदोरिमे सर्वे अभिष्टिताः अत्रैव वोऽपि न ह्याम्युभे आर्त्नी वज्यया वाचस्पते निषेधेमान्यथा मदधरं वदान् अभिभूरहमागमं विश्वकर्मेण धाम्ना आवश्चित्तमावो व्रतमावोऽहं समितिं ददे योगक्षेमं व आदायाहं भूयासुमुत्तम आवो मूर्धानमक्रमीम् अधस्पदान्म उद्वदत मण्डूका इवोदकान् मण्डूका उदकादिव हरिः ओम्।